सर्वेषां पाणिनीव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं क्रियते। भगिनी कृपया श्लोकान् स्मारयतु।
येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमच्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाच्यकारं वरऋषिं भाष्यकारं पतञ्जलिम् पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्।
येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः।
अस्तु, धातुविज्ञानम् इति विषयः प्रवर्तमानः अस्ति। धातुविज्ञानं प्रथमभागः समापितः, धातुविज्ञानं द्वितीयभागः अद्य आरभ्यते। पाठस्य शीर्षकं धातुविज्ञानं द्वितीयभागः। तिङन्तपदरूपसाधनवेलायाम् अस्माकं प्रथमं कार्यम् अनुबन्धवर्णानां निष्कासनं, तत्पश्चात् कानिचन सोपानानि सन्ति। धातुभ्यः अनुबन्धवर्णानां निष्कासनानन्तरं कानिचन प्राकृतिककार्याणि करणीयानि। अहं किम् उक्तवती? प्राकृतिककार्याणि करणीयानि। तेषां नाम प्राकृतिकं कार्यं। किमर्थं तथा उक्तम् इत्युक्ते, प्रकृतिम् आश्रित्य तानि कार्याणि प्रवर्तन्ते। तिङन्तरूपसाधनवेलायां प्रकृतिः धातुः, तिङन्तरूपसिद्धौ धातुम् आश्रित्य सर्वं भवति। धातुतः एव संस्कृतभाषायाम् आहत्य 90% पदानि उत्पन्नानि। धातुम् आश्रित्य इमानि विशिष्टकार्याणि भवन्ति। इत्युक्ते एतेषां कार्याणां कृते बहिर्भूतं निमित्तं किमपि न आवश्यकम्। बहिर्भूतं निमित्तम् अनपेक्ष्य केवलं धातुम् आश्रित्य इमानि कार्याणि भवन्ति। तादृशानि कार्याणि एव सत्वं, नत्वं, नुमागमः, उपधादीर्घः। एतेषां कार्याणां कृते निमित्तम् अनावश्यकं, किन्तु इमानि कार्याणि आदौ एव करणीयानि, पश्चात् एव अङ्गकार्याणि अथवा सन्धिकार्याणि वा भवितुमर्हन्ति। आदौ अनुबन्धवर्णानां निष्कासनं, पश्चात् एतेषु चतुर्षु कार्येषु अन्यतमं कार्यं तत्र करणीयं वा इति एकवारं द्रष्टव्यम्। इमानि कार्याणि केवलं धातुमाश्रित्य एव भवन्ति। इत्युक्ते उपदेशावस्थायां धातोः रूपं कथमस्ति, उपदेशावस्थायां धातोः रूपम् आश्रित्य, धातुम् आश्रित्य, निमित्तम् अनपेक्ष्य इमानि कार्याणि भवन्ति। किन्तु नूतनपाठस्य आरम्भात् पूर्वं गतवर्गस्य प्रश्नानाम् उत्तराणि वक्तुमिच्छामि। गतवर्गे केचन प्रश्नाः आगताः, तदर्थं कानिचन करपत्राणि अपि अहं प्रेषितवती। तानि करपत्राणि भवद्भिः अवलोकितानि इति मम चिन्तनम्। प्रथमं करपत्रमस्ति, लुकारस्य उच्चारणं कथं भवेत्। लुकारे किञ्चिदेव व्यञ्जनभागः अस्ति, स्वरभागः अधिकः अस्ति, तदर्थं ल एव वक्तव्यं, लृ इति न वक्तव्यम्। लुकारे रेफस्य उच्चारणं मा भवेत्। रेफस्य उच्चारणं विना एव लकारस्य उच्चारणं करणीयम्। गतसप्ताहे शाकन् प्रत्ययस्य प्रसङ्गे किञ्चित् आगतं खलु, शाकन् इति एकः प्रत्ययः अस्ति, तस्मात् अनुबन्धवर्णानां लोपानन्तरम् आक अवशिष्यते इति अस्माभिः पठितं खलु। शाकन् इति कीदृशप्रत्ययः इति प्रश्नः आगतः। शाकन् प्रत्ययः कर्त्रार्थकप्रत्ययः, कर्तारं बोधयति, अपि च तच्छीलादिषु अयं प्रत्ययः उपयुज्यते। तच्छीलादिषु इत्युक्ते तादृशं शीलम् अस्य अस्ति इति अर्थे शाकन् प्रत्ययस्य प्रयोगः भवति। तत्र विशेषः कः? शाकन् प्रत्ययः सर्वेभ्यः धातुभ्यः न विहितः। पश्यन्तु, शाकन् प्रत्ययः सर्वेभ्यः धातुभ्यः न विहितः, तृच् प्रत्ययः इव नास्ति। तृच् प्रत्ययः सर्वेभ्यः धातुभ्यः विहितः भवति, किन्तु शाकन् प्रत्ययः केवलं केभ्यश्चित् धातुभ्यः एव तस्य योजनं भवति। तत्र एकं सूत्रं प्रेषितवती, जल्पभिक्षकुट्टलुण्टवृञः शाकन् सूत्रम्। तस्मिन् सूत्रे किमुक्तमस्ति? पञ्चधातवः दत्ताः, इत्युक्ते लुण्ट् धातुतः लुण्टाकः, भिक्ष् धातुतः भिक्षाकः, जल्प धातुतः जल्पाकः, कुट्टधातुतः कुट्टाकः, वृधातुतः वराकः। एतेभ्यः पञ्चभ्यः धातुभ्यः शाकन् प्रत्ययः विहितः भवति। त तदर्थं सूत्रमेव जल्पभिक्षकुट्टलुण्टवृण्यः शाकन्। शाकन् प्रत्ययः शित् प्रत्ययः, इत्युक्ते शाकन् इत्यस्मिन् शकारः इति संज्ञकः अस्ति, अतः षित् प्रत्ययः इति वक्तुं शक्यते। केचन षित् प्रत्ययः अस्माभिः दृष्टाः खलु, ष्वञ् ष्यन् इत्यादयः षित् प्रत्ययाः। ष्यञ् इत्युक्ते सुन्दरस्य भावः, सौन्दर्यं, तथा शाकन् प्रत्ययस्य योजनेन पञ्चपदानि साधितानि। कर्तृकप्रत्ययः लुण्टाकः, भिक्षाकः, जल्पाकः, इमानि पदानि पुंलिङ्गपदानि खलु, तत्र स्त्रीलिङ्गपदं नदीशब्दवत् भवति, इत्युक्ते दीर्घ ईकारान्तपदं भवति। लुङ्काकी, जल्पाकी, राकी, कुट्टाकी, भक्षाकी इव नदीशब्दवत् रूपाणि भवन्ति स्त्रीलिङ्गरूपाणि। तत्र लिङ्क् अस्ति, लिङ्क् किम् इत्युक्ते अयं प्रत्ययः शाकन् प्रत्ययः षित् प्रत्ययः, त्रयः आकारान्तप्रत्ययाः सन्ति, त्रयः दीर्घ ईकारान्तप्रत्ययाः सन्ति। शाकन् प्रत्ययस्य योजनेन प्रातिपदिकं सिद्ध्यति, तत्पश्चात् स्त्रीप्रत्ययस्य योजनं भवति। शाकन् षित् अस्ति इति कारणतः स्त्रीप्रत्ययान् योजयितुम् एकं सूत्रमस्ति, षित् गौरादिभ्यश्च इति, इत्युक्ते षित् प्रत्ययेषु अनेन सूत्रेण षित् गौरादिभ्यश्च इति सूत्रेण नीश् इति एकः प्रत्ययः विधीयते। नीश् प्रत्यये अपि शकारसहितसंज्ञा हलन्त्यं सूत्रेण भवति, ञकारसहितसंज्ञा दशक्वतद्धिते इत्यनेन भवति, ई एव अवशिष्यते। नीश् प्रत्ययस्य योजनेन जल्पाकी, लुण्टाकी, वराकी ईकारान्तस्त्रीलिङ्गपदानि साधयितुं शक्नुमः। तत्र प्रत्ययः षित् अस्ति इति कारणतः षित् गौरादिभ्यश्च सूत्रेण नीश् प्रत्ययस्य विधानं, स्त्रीप्रत्ययस्य विधानं भवति इति तत्र लिङ्क् अस्ति। गते सप्ताहे कानिचन तल् प्रत्ययान्तपदानि अपि अहं प्रेषितवती, बहु सामान्यानि पदानि एव, मनुष्यता, गुरुता, लघुता, देवता, पशुता, जडता, दीर्घता, कविता, पटुता, कृशता, इमानि पदानि तल् प्रत्ययान्तपदानि। तेषु अन्यतमं पदमेव देवता। देवता इति पदं कथं साधनीयम् इति अपि किञ्चित् प्रेषितं, भवन्तः सर्वे दृष्टवन्तः इति मन्ये। जडस्य भावः, जडता इत्युक्ते भावार्थे तल् इति प्रत्ययस्य विधानं भवति। तल् प्रत्ययान्तपदानि सर्वदा नित्यस्त्रीलिङ्गपदानि भवन्ति। तल् प्रत्ययः भावार्थकप्रत्ययः, अपि च तल् प्रत्ययस्य योजनेन स्त्रीलिङ्गपदानि सिद्ध्यन्ति, यथा मधुरता, लताशब्दवत् आकारान्त स्त्रीलिङ्गपदानि सिद्ध्यन्ति। गते सप्ताहे मिद् धातोः प्रसङ्गे किञ्चित् चर्चितम् अस्माभिः।
प्रश्नः अस्ति तत्र, षित् अस्ति शाकन्, किन्तु तत्र तु मूर्धन्य शकार अस्ति षित्,
आम्
इत्युक्ते तालु शकार अस्ति चेत्, मूर्धन्य शकार अस्ति चेत् कार्याणि भिन्नानि न तत्र?
आम्, शाकन् इत्यत्र मूर्धन्यशकारः आदिमवर्णः, प्रत्ययस्य आदौ अस्ति, तदर्थमेव शः प्रत्ययस्य इति सूत्रेण तस्य लोपः भवति।
मम तदेव प्रश्नः अस्ति, एतत् शाकन् प्रत्ययः षित् प्रत्ययः अस्ति, परन्तु तिङ्क्षित् सार्वधातुकं तत् सूत्रम् अत्र प्रसक्ति नास्ति किल?
नास्ति,
एतत् मूर्धन्यशकारः,
अत्र मूर्धन्यशकारः एव अस्ति। गीताञ्जलि भगिनी पुनः पृच्छतु।
तदेव मम प्रश्नः भगिनी, इत्युक्ते यः ये कार्याणि ते षित् मूर्धन्य वा साधु वा भिन्नकार्याणि आदेशः कुर्वन्ति इति,
तादृशी स्पष्टता भवेत्। संस्कृतम् इत्युक्ते सम्यक् कृतम्, तत्र उच्चारणदोषः मा भवेत्, तत्र बहु किमपि चिन्तनम् आवश्यकं। तालव्यशकारः भिन्नः, मूर्धन्यशकारः भिन्नः, तावदेव। अन्यः विषयः अस्ति, मिद् धातोः प्रसङ्गे काचित् चर्चा आगता। मिद् धातुः गणद्वये अस्ति, भुवादिगणे मिद् धातुः अस्ति, इगुपदधातुः मिद् धातुः अस्ति इति कृत्वा भुवादिगणे उगन्तलघुपदस्य च गुणकार्यं भूत्वा मेदते इति आत्मनेपदिरूपं भुवादिगणे अस्ति इति कारणतः भुवादिगणे मिद् धातुः स्नेहने इति अर्थे अस्ति। तस्मिन्नेव अर्थे स्नेहने इत्यस्मिन् अर्थे एव दिवादिगणे अपि मिद् धातुः अस्ति। दिवादिगणीयमिद् धातुः दिवादिगणे विशिष्टधातुः, सामान्यधातुः नास्ति। इत्युक्ते किम् इति अपि ज्ञातव्यम्। दिवादिगणस्य प्रसङ्गे इतोपि विस्तरेण चर्चिष्यामः। दिवादिगणीयमिद् धातुः तत्र विशिष्टधातुः। विशिष्ट इति किमर्थम् उक्तवती? दिवादिगणे धातुषु गुणकार्यं न भवति. इगन्तधातवः सन्ति चेदपि गुणकार्यं न भवति. ष्यन् अस्ति खलु, ष्यन् इति अपित् प्रत्ययः, अपित्वात् गुणकार्यं न सम्भवति एव. किन्तु मिद्धातोः प्रसङ्गे दिवादिगणे विशिष्टसूत्रेण विशिष्टधातुः अस्ति इति कृत्वा मिद्यर्गुणः सूत्रेण गुणकार्यं भूत्वा मेद्यति इति रूपं सिद्ध्यति. दिवादिगणीय मिद्धातुः अणिमिदां, तत्र अनुबन्धवर्णाः सन्ति. अनुबन्धवर्णानां निष्कासनानन्तरं लौकिकधातुः मिद् अस्ति, तत्र मिदेर्गुणः सूत्रेण गुणकार्यं भवति. अपि च सुन्दरकल्याण महोदयेन पृष्टमासीत् कर्ता इति रूपं कथं साधितं. क्रूधातुतः तृच् प्रत्ययस्य योजनेन कर्तृ इति प्रातिपदिकं साधितं. तत्र किं कृतं, डुक्रिङ् धातुतः क्रु इति लौकिकधातोः निर्माणं कुर्मः, अनुबन्धलोपं कृत्वा क्रु इति रूपं साधयामः. पश्चात् णुवुल् तृचौ इति विधिसूत्रमस्ति, तेन विधिसूत्रेण तृच् प्रत्ययं योजयामः. तृच् इत्यस्मिन्नपि अनुबन्धवर्णाः सन्ति, चकारः इति संज्ञकवर्णः, तृ अवशिष्यते. क्रूयोगः तृ इति अस्ति. तृच् प्रत्ययः अर्धधातुकं शेषः सूत्रेण अर्धधातुकसंज्ञकः. अपि च तृच् प्रत्ययः इडागमयोग्यः, तदर्थं तत्र इडागमः भवति वा इति अपि द्रष्टव्यम्. केवलं प्रत्यये आनुकूल्यम् अस्ति चेत् तत्र इडागमः न सम्भवति. धातौ अपि आनुकूल्यम् आवश्यकं, धातौ आनुकूल्यं नास्ति. किमर्थं, क्रू धातुः एकाच् धातुः, तदर्थम् एकाच् उपदेशे अनुदात्तात् तत्र इडागमनिषेधः भवति. पश्यन्तु, लिख् अस्ति चेत् लेखिता, पठ अस्ति चेत् पठिता, तृजन्तरूपाणि इमानि. पठिता किमर्थमस्ति, तत्र आनुकूल्यमस्ति धातौ अपि च प्रत्यये अपि. किन्तु क्रू धातोः प्रसङ्गे धातौ आनुकूल्यं नास्ति, एकाच् धातुः, इडागमनिषेधः भवति. तत् चिन्तनमपि करणीयं. किमर्थं चेत् तृच् प्रत्ययः अर्धधातुकप्रत्ययः, अर्धधातुकप्रत्ययानां रूपसिद्धौ इडागमचिन्तनम् आवश्यकम्, इडागमचिन्तनं करणीयमेव. क्रूयोगः तृच्, क्रू लौकिकधातुः, तृ इति अनुबन्धलोपे सति तस्य रूपम् अस्ति. क्रूयोगः तृ, क्रू धातुः इगन्तधातुः, तदर्थं सार्वधातुकार्थधातुकयोः इत्यनेन गुणकार्यं भूत्वा कर् भवति. कर् योगः तृ, वर्णमेलनेन कर्तृ इति रूपं साधितं. कर्तृ इति कीदृशशब्दः इत्युक्ते, कर्तृ इति प्रातिपदिकं. प्रातिपदिकं कथं भवति, तत्र एकं सूत्रमस्ति, कृत्तद्धितसमासाश्च. कृदन्तपदानि, तद्धितान्तपदानि, सामासिकपदानि इत्युक्ते समासयुक्तपदानि, इमानि प्रातिपदिकसंज्ञां प्राप्नुवन्ति. कृत्तद्धितसमासाश्च इति संज्ञासूत्रमस्ति, तेन सूत्रेण प्रातिपदिकसंज्ञा दीयते. कर्तृ इति शब्दस्वरूपस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च सूत्रेण भवति. इदानीं प्रातिपदिकं स्वीकृत्य सुबन्तप्रक्रियां कुर्मः. तत्र तु बहूनि नूतनानि सूत्राणि अपेक्षितानि. कर्तृयोगः सु एकवचनप्रत्ययः, स्वौजसमौ इति एकं दीर्घं सूत्रमस्ति खलु, एकविंशतिप्रत्ययाः सन्ति, तेन सूत्रेण सुप्रत्ययं योजयामः. किन्तु नूतनानि चत्वारि सूत्राणि तत्र अपेक्षितानि, अनङ्गादेशः, उपधः, दीर्घः, कानिचन कार्याणि भवन्ति. प्रथमम् अस्ति रुदुशनस्फुरुदंशोनेहसां च. सूत्रं किं वदति, ऋकारान्तप्रातिपदिकेषु, अत्र प्रातिपदिकं ऋकारान्तमस्ति खलु, कर्तृ इति ऋकारान्तप्रातिपदिकेषु अनेन विशिष्टसूत्रेण रुदु शन स्फुरु दंसो नेहसां च. ऋकारान्तप्रातिपदिकेषु अनङ्गादेशः भवति. एवं रीत्या अन्यानि कार्याणि अपि सन्ति, तानि सूत्राणि अस्माभिः परिचितानि न, तदर्थं न वदामि. अन्ततो गत्वा तत्र कर्ता इति रूपं सिद्ध्यति. एकवारम् अवलोकयन्तु, तेन किञ्चित् अवगमनं भवति. अपि च धातुतः णुवुल् प्रत्ययस्य योजनेन प्रातिपदिकं सिद्ध्यति. क्रू धातुतः णुवुल् योजनेन कारक इति रूपं, युवरनाकौ इति सूत्रेण क्रू धातुतः णुवुल् योजनेन अक आदेशः भवति. कारक इति प्रातिपदिकं सिद्ध्यति. कारकप्रातिपदिकात् पुंलिङ्गे कारकः.
तस्मात् कारणात् दीर्घः भवति भगिनि, दीर्घः वृद्धिः.
तत्र पश्यतु, क्रू इति धातुः अस्ति, क्रू धातुः ईगन्तधातुः इत्युक्ते अजन्तधातुः इत्यपि वक्तुं शक्यते. क्रू धातुः अजन्तधातुः इत्युक्ते तस्य अन्ते अच् वर्णः अस्ति, ऋकारः अच् वर्णः अस्ति. एकं विशिष्टं सूत्रम् अस्माभिः पठितम्, अचोयिणिति इति एकं सूत्रमस्ति. अचोयिणिति इति सूत्रेण क्रू तत्र ऋकारस्य स्थाने दीर्घ आकारः आयाति. दीर्घ आकारः अपि वृद्धिसंज्ञकवर्णः. वृद्धिरादैच् इति सूत्रमस्ति खलु. वृद्धिः इत्युक्ते किम्? आत् ऐच्. आत् इत्युक्ते आकारः, अपि च ऐच् वृद्धिसंज्ञकवर्णः. वृद्धिरादैच् इति वृद्धिसंज्ञासूत्रमस्ति. तत्र वृद्धिकार्यं भूत्वा क्रु इत्यत्र आकारः आयाति. यत्र यत्र ऋकारस्य स्थाने अण्वर्णः आदेशः भवति तदा उरण्परः इति सूत्रेण सः आकारः रपरः भवति इति अस्माभिः पठितं. तदर्थमेव क्रु कार् भवति. कार् योगः अक, अक इति युवर्णाकौ सूत्रेण आयाति. तेन कारक इति प्रातिपदिकं. किन्तु कारकः इति साधयितुं विशिष्टानि कार्याणि न सन्ति. केवलं ऋत्वविसर्गयोः कारणेन कारकः इति रूपं सिद्ध्यति. अपि च रेफः इति पदस्य प्रसङ्गे तत्र वर्णात् कारः इति एकं वार्तिकमस्ति. तेन वार्तिकेन कार इति प्रत्ययः विधीयते. मया उक्तमेव सर्वेभ्यः धातुभ्यः कारप्रत्ययः भवति इति कृत्वा अकारः इकारः उकारः एवं वदामः. तथा एव रकारः अपि वक्तुं शक्यते अनेन. अपि च रेफः इति किमर्थम् उक्तमस्ति? प्रादिफः इति वार्तिकेन इफ प्रत्ययस्य विधानं भवति. तेन रेफः इति पदं निर्मितम्. अपि च तृजन्तपदानां प्रसङ्गे रूपसिद्धिः कथं भवति इत्यपि किञ्चित् प्रेषितं गते सप्ताहे. अपि च व्यक्तिः इति पदम् आगतं खलु. तत्र व्यक्तिः इति कीदृशं पदम् इति अवलोकयामश्चेत् द्वि उपसर्गपूर्वकः. धातुः अञ्ज् अस्ति किन्तु अज्यते इति रूपं सिद्ध्यति. इत्युक्ते नकारस्य लोपः भवति. तत्र अनिदितामहल उपधायाक् इति सूत्रेण आहत्य वि उपसर्गपूर्वकः अञ्जिधातुतः क्टिन् प्रत्ययस्य योजनेन ह्रस्वैकारान्त स्त्रीलिङ्गपदं व्यक्तिः इति पदं सिद्ध्यति. व्यक्तिः इति स्त्रीलिङ्गपदं. वियोगः अञ्जियोगः क्टिन् प्रत्ययः. तिन् प्रत्ययान्तपदानि नित्यस्त्रीलिङ्गपदानि. गतिः मतिः इव व्यक्तिः. वाक्यद्वयं मया प्रेषितं. सीता इति काचित् व्यक्तिः आगतवती इति साधुवाक्यं. रामः इति काचित् व्यक्तिः आगतवती इति साधुवाक्यं. तत्र व्यक्तिः इति स्त्रीलिङ्गपदमस्ति इति कृत्वा आगतवती एव वक्तव्यम्. आगतवान् इति न वक्तव्यम्.
तत्र सन्देहः, मम सन्देहः अस्ति. तत्र रामः एतत् वाक्यं रामः आगतवती इत्यपि वक्तुं शक्यते. रामः एव आगतवान् किल? तत्र लिङ्गप्रश्नः भवति किल? रामः आगतवान् एव किल? रामः व्यक्तिः. व्यक्तिः इति विशेषणपदं. रामः इति काचित् व्यक्तेः विशेषणं भवति. तत्र साधु एव. परन्तु आगतवती इति कारणं मम चिन्तनाय मतलब् ऐ डोण्ट् अण्डर्स्टाण्ड्. आगतवती कथम्? आगतवान् एव भवितव्यं किल?
न. पुनः एकवारं वाक्यम् अवलोकयतु. तत्र रामः आगतवान्, सीता आगतवती, वाक्यं साधु. किन्तु व्यक्तिः इति पदस्य प्रयोगः अभवत्. रामः नाम काचित् व्यक्तिः आगतवती. अत्र व्यक्तिः का इत्युक्ते रामः. यद्यपि रामः इति पुंलिङ्गशब्दः अस्ति, तथापि तत्र व्यक्तिः इति पदमस्ति. व्यक्तिः इति शब्देन किम् उच्यते? रामस्य प्रसङ्गः एव तत्र अस्ति. यद्यपि रामशब्दः पुंलिङ्गः अस्ति, तथापि व्यक्तिः स्त्रीलिङ्गपदमस्ति इति कारणतः आगतवती इति एव वक्तव्यम्.
भगिनी, तत्र क्रियापदस्य प्राधान्यं कुत्र भवति?
वाक्ये क्रियापदं रामः एव अनुसृतवती किल? कर्तरि वाक्ये
किल
कर्मपदम् अनुसृत्य कर्मणि वाक्ये एव भवति किल?
रामः नाम काचित् व्यक्तिः आगतवती इति वाक्यं तु कर्तरिप्रयोगे एव अस्ति. इत्युक्ते व्यक्तिः आगतवती, व्यक्तिः आगतवती. तत्र व्यक्तिः इति तस्मिन् वाक्ये कर्तृपदमस्ति. कर्तृपदम् अनुसृत्य आगतवती इति कृदन्तपदं योजितमस्ति. वाक्येषु तिङ्गन्तपदं नास्ति चेत् कृदन्तपदमपि क्रियापदम् इव कार्यं करोति. तत्र आगतवती इति पदं यद्यपि कृदन्तपदं, तिङ्गन्तपदम् इव कार्यं करोति. तत्र व्यक्तिः इति पदस्य विशेषणम् एव आगतवती. किन्तु व्यक्तिः का? तत्र व्यक्तिशब्देन कः अभिधेयः इत्युक्ते कः उक्तः व्यक्तिशब्देन रामः उक्तः. रामः इति पदं पुंलिङ्गपदम् अस्ति चेदपि व्यक्तिशब्देन रामः उक्तः, तदर्थमेव तत्र आगतवती इति रूपमेव लेखनीयम्.
भगिनि तत्र गौणपदं वा तत्र रामः इति? तत्र प्रधानं तु व्यक्तिशब्दः. क्रियाशब्दस्य प्रयोगे अत्र व्यक्तिशब्दः प्रधानः अस्ति, रामशब्दः अप्रधानः, नाम गौणः इति स्वीकरणीयं वा?
द्विकर्मकधातु, द्विकर्मकधातु वा?
द्विकर्मकधातवः न,
कर्मपदमेव नास्ति किल अत्र, कर्मपदमेव नास्ति किल वाक्ये.
द्विकर्मकः धातवः भिन्नाः, सः विषयः भिन्नः, किन्तु अत्र विषयः कः इत्युक्ते व्यक्तिः इति पदं तु स्त्रीलिङ्गपदमस्ति इति कारणतः अस्मिन् वाक्ये रामः नाम काचित् व्यक्तिः आगतवती. केवलं रामः आगतवान् इति वाक्यं साधु एव, किन्तु अत्र व्यक्तिः इति स्त्रीलिङ्गपदमस्ति इति कृत्वा आगतवती इति रूपमेव साधु. संस्कृतभाषायाम् एवं लेखितुं शक्यते. एवं रीत्या वक्तुं न इच्छति चेत् रामः नाम कश्चन जनः आगतवान् साधु एव. जनः इति पुंलिङ्गपदमस्ति इति कृत्वा कश्चन जनः आगतवान् इति अपि लेखितुं शक्यते. नो चेत् तिङन्तपदम् उपयुज्य वाक्यं लेखितुं शक्नुमः.
तस्मात् भगिनि सीता इति कश्चन जनः आगतवान् तदपि साधुरेव, तदेव सेम् सेम् प्रिन्सिपल् अप्लैस् देयर् आल्सो, तदेव साधु वा? तदेव तदेव.
एक्स्क्यूस् मी बट् जन इस् अ मैस्कुलैन् नाउन् सो यू कांट् यूज़ इट् लाइक दैट.
महोदय किं कृतवान् इत्युक्ते तत्र अप्लिकेशन् कृतवान्. रामः नाम काचित् व्यक्तिः आगतवती इति वदामश्चेत् तद्वाक्यं साधु भवति चेत् सीता नाम कश्चन जनः आगतवान् इति वाक्यं किमर्थम् असाधु भवति?
साधु वा
साधु न भवति? व्यक्तिः स्त्रीलिङ्ग अस्ति, जनः पुल्लिङ्ग अस्ति.
सर्वे चिन्तयन्तु तस्मिन् प्रसङ्गे.
किञ्चित् अहं वदामि वा? अत्र अस्ति इति क्रियापदम् अध्याहर्तव्यम्. आगतवती एकं कृदन्तमस्ति. रामः इति रामः नाम व्यक्ति आगतवती अस्ति, अस्ति क्रियापदमस्ति, आगतवती कृदन्तमस्ति, व्यक्ति कर्ता अस्ति, रामः विशेषण अस्ति. साधु वा?
अत्र अस्ति अथवा आसीत् इत्यादीनि पदानि अध्याहर्तुं शक्नुमः. एकतिङ् वाक्यम् इति सूत्रेण तिङन्तपदम् अस्माकं विवक्षानुगुणं तत्र आवश्यकं चेत् कृदन्तपदेन तत्र कार्यं न भवति चेत् तिङन्तपदमपि योजयित्वा वाक्यं लेखितुं शक्नुमः, तत्र समस्या नास्ति. किन्तु अत्र समस्या तु सीता नाम कश्चन जनः आगतवान् इति वाक्यम् असाधु भवति वा? रामचन्द्रन् महोदय कृपया वदतु.
भगिनि तत्र व्यक्तिशब्दस्य विशेषता अस्ति, अतः प्रयोगे भिन्नता अस्ति. किन्तु कश्चन जनः इति यदा भवति, रामः नाम कश्चन जनः, तत्र साक्षात् विशेषणविशेष्यभावः अस्ति. किन्तु रामः नाम रामः इति काचित् व्यक्तिः, तत्र विशेषणविशेष्यभावः नास्ति. अतः विशेषशब्दस्य व्यक्तिशब्दस्य प्रयोगकारणेन भिन्नता अस्ति क्रियापदे.
महोदय
अहं चिन्तयामि
अत्र सीता एव चर्चायाः कारणं
प्रयोगशरणाः वैयाकरणाः इत्युक्ते तादृशप्रयोगः अस्ति वा काव्येषु ग्रन्थेषु?
सीता आगतवती एव शुद्धं. किमर्थं चेत् सीता इति कश्चन जनः, वाक्यस्य अर्थं पूर्णं न भवति. कश्चन जनः आगतवती आगतवान् इति उक्तं चेत् वाक्यस्य अर्थं पूर्णं न भवति न. सीता इति कश्चन जनः आगतवती, सीता आगतवती इति अर्थं भवति न, अर्थं पूर्णं भवति.
महोदयेन यदुक्तं व्यक्तिः इति विशिष्टं पदमस्ति, तस्य प्रयोगः तादृशरीत्या भवितुमर्हति.
इतोपि यदि रामः आगतवती तर्हि सीता अपि आगतवान्, द्वयमपि साधु. यदि रामः न आगतवती तर्हि सीता अपि न आगतवान्, तदेव मम चर्चा.
इस् इट् बिकास् व्यक्ति विशिष्टपदम् अस्ति किन्तु जनः विशिष्टपदं नास्ति.
रामचन्द्रन् महोदयेन तदेव उक्तमस्ति,
तस्य प्रयोगम् अपि विशिष्टं भवति खलु, प्रयोगम् अपि विशिष्टं भवति विशिष्टपदम् इत्युक्ते, किन्तु जनः विशिष्टपदं नास्ति अतः सामान्यतया प्रयोगं कर्तुं न शक्यते. यु केनाट् यूस् अ स्पेशल् फार्म्.
व्यक्तिः इत्युक्ते पृथगात्मता इति लिखितमस्ति. चिन्तयन्तु तस्य अर्थः कः, पृथगात्मता. व्यक्तिः इत्युक्ते जनः इति अर्थः एव अस्ति, किन्तु पृथगात्मता इति उत्तम अर्थः तत्र दीयते. शत्रन्तानां रूपसिद्धेः विषये एकः प्रश्नः आगतः.
भगिनि, विशेषणं यदि आदौ उपयोगं करोमि, लैक् व्यक्तिः रामः, तत्र आगतवान् और् आगतवती, व्यक्तिः रामः, तत्र किं उपयोगं करोमि, व्यक्तिः रामः आगतवान् अथवा आगतवती?
तत्र विशेषणविशेष्यभावः नास्ति, किन्तु विशेषणविशेष्यभावः कुत्र अस्ति, व्यक्तिः आगतवती, तयोर्मध्ये विशेषणविशेष्यभावः अस्ति, किन्तु व्यक्तिशब्देन कस्य निर्देशः कृतः इत्युक्ते रामस्य निर्देशः भवति इति कारणतः तस्मिन् वाक्ये आगतवती रामः,
व्यक्तिः रामः आगतवती. परन्तु अहं तत् वक्तुं न इच्छामि, अहं तु व्यक्तिः रामः वक्तुम् इच्छामि. व्यक्तिः रामः आगतवान् अथवा आगतवती, किं साधु अस्ति?
भगिनि, तर्हि महोदयः वदति व्यक्तिः रामः इति, पदद्वयोः सम्बन्धः भवति वा? विशेषविशेष्यः विशेषरूपेण अस्ति, तर्हि रामः विशेष्यमस्ति, व्यक्तिः शब्दः विशेष्यम् इति चेत् वक्तुं शक्नुमः, किन्तु द्वयोः अन्वयः नास्ति किल, सम्बन्धः नास्ति किल, विशेषणविशेष्यरूपेण प्रयोगं कर्तुं व्यक्तिशब्दः तत् न अन्वयं न प्राप्नोति किल, सः साधुत्वं कथं भवति?
शत्रन्तानां प्रसङ्गे एकः प्रश्नः आगतः. तत्र शत्रन्तानां रूपनिर्माणप्रसङ्गे मार्गद्वयमस्ति इति मया उक्तं. तत्र लघुमार्गः शास्त्रीयमार्गः इति. लघुमार्गः आदौ अस्माभिः ज्ञातव्यः, प्रथमपुरुष बहुवचनप्रत्ययः, सिद्धतिङ् प्रत्ययः, तिप् तस् झि इति वदामः खलु, झि इति मूलतिङ् प्रत्ययः अस्ति, झि इत्यस्य स्थाने अन्त आदेशः भवति तत्र झोन्तः सूत्रेण, तेन अन्ति इति सिद्धतिङ् प्रत्ययस्य निर्माणं भवति. तिङन्तप्रक्रियायाम् एव अन्ति इति सिद्धतिङ् प्रत्ययः, प्रथमपुरुष बहुवचनप्रत्ययः, अन्तिप्रत्ययः अस्ति. पठन्ति इति रूपं साधयितुं पठ्ययोगः अन्ति, तत्र पठन्ति इति न भवति, पठ् धातुः भुवादिगणे अस्ति इति कारणतः पठ्ययोगः शप् योगः अन्ति, पठ्ययोगः शप् योगः अन्ति इति तत्र रूपमस्ति. पठ्ययोगः शप् इति कथनेन अकारः आयाति, पठ्ययोगः अ पठ इति अङ्गमस्ति तत्र, पठयोगः अन्ति योजनेन पठन्ति रूपम् आयाति. तत्र एकं विशिष्टं सन्धिसूत्रमस्ति, अतो गुणे इति सूत्रेण कार्यं भवति, तेन पठन्ति इति रूपं सिद्ध्यति. तस्य चिन्तनम् अधुना किमर्थम् इत्युक्ते शत्रन्तरूपसाधनवेलायाम् अपि एवमेव चिन्तनीयं. प्रथमपुरुषबहुवचनरूपसिद्धौ अन्ति योजयामः, किन्तु शत्रन्तरूपसाधनवेलायाम् अन्तिस्थाने अत् योजयामः, तावानेव भेदः. तत्र पठ् धातुं स्वीकृत्य शप् योजयित्वा, शप् किमर्थं योजनीयम् इत्युक्ते शत्रुप्रत्ययः सार्वधातुकसंज्ञकः, शत्रु इत्यस्मिन् शकारः षित् अस्ति, तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः, अतः लशक्वतधिते इति सूत्रेण तत्र स्थितस्य शकारस्य इति संज्ञा भवति, अनुनासिकरुकारस्य अपि इति संज्ञा भवति, उपदेशजन्नासिके इति सूत्रेण भवति, तेन शत्रुप्रत्यये अवशिष्टभागः अत् अस्ति. पठ्ययोगः शप् योगः अत् योजयामः इत्युक्ते पठ्ययोगः अ शप् इत्यस्मात् आ आगतः, शत्रु इति प्रत्ययात् अत् आगतः, तेन पठ्ययोगः आयोगः अत्, तेन पठ इति अङ्गं भवति कस्य कृते, शत्रुप्रत्ययस्य कृते. तदर्थमेव पठयोगः अत् योजनीयं, तत्रापि अतो गुणे इति सूत्रेण पठत् इति प्रातिपदिकं सिद्ध्यति. अयमेव लघुमार्गः, किन्तु अस्य कृते अपि शास्त्रीय आधारः अस्ति, शास्त्रीयचिन्तनम् अस्माभिः ज्ञातव्यम्। एषः एव लघुमार्गः, अपि च भीलुकः इत्यस्मिन् पदे क्लूकन् प्रत्ययः अस्ति इति मया उक्तमेव गते सप्ताहे। तत्र भीधातुतः क्लूकन् प्रत्ययस्य योजनेन भीलुक इति पदं सिद्ध्यति। भीधातुः ईगन्तधातुः अस्ति चेदपि क्लूकन् प्रत्ययः कित् अस्ति इति कारणतः गुणकार्यम् अभूत्वा, क्निति च सूत्रेण गुणकार्यम् अभूत्वा भी एव तिष्ठति। क्लूकन् इत्यत्र अस्माभिः पठितं खलु, नकारः हलन्तीमित्यनेन, ककारः लशक्वतधिते इत्यनेन अपगच्छति, तेन लूक, तत्र अनुनासिक अकारस्य इति संज्ञा नास्ति, लुक एव तत्र अवशिष्टभागः अस्ति। भीयोगः लुक, भीलुक, भीलुकः इत्युक्ते भीरुः अथवा भीरुकः। भीलुकः इति पदं साधयितुम् एकं विशिष्टं सूत्रम् आवश्यकं, किन्तु भीरुः इति पदं साधयितुं वार्तिकम् अपेक्षितं। भीरुकः इति अन्यत् पदम्, इमानि भिन्नानि पदानि, भीलुकः भिन्नं, भीरुः भिन्नं, भीरुकः भिन्नं, भयशीलः भिन्नं खलु। भीरुः अथवा भीरुकः इति पदद्वयं साधयितुम् एकं विशिष्टं वार्तिकम् अपेक्षितं। तत्र सूत्रमस्ति भीयः क्रूक्लुकनौ, भीयः क्रूक्लुकनौ इति सूत्रेण क्लूकन् प्रत्ययः भी धातुतः विहितः भवति। पुनः वदामि, सर्वे प्रत्ययाः सर्वेभ्यः धातुभ्यः न विधीयन्ते, केचन प्रत्ययाः केषाञ्चन विशिष्टधातूनां कृते एव सन्ति। अस्माकं करपत्रं प्रति गन्तव्यं खलु, इदानीं द्वितीयं करपत्रम् एकवारम् अवलोकयन्तु। एतेषां विषये पुनः पुनः पठामश्चेत् किञ्चित् मनसि तिष्ठति, तदर्थम् उक्तवती। द्वितीयं करपत्रं पश्यन्तु, धातुविज्ञानं द्वितीयभागः इति अवलोकयन्तु। गीताञ्जलि भगिनी भवती आरम्भं करोतु।
प्रश्नः अस्ति मम, क्लुक्कन् इत्यत्र नकारस्य इत्संज्ञा भवति, अकार अनुनासिक अकारस्य किमर्थं न भवति इत्संज्ञा?
करपत्रे मुद्रणदोषः अस्ति महोदय, मया अन्यस्मिन् पुस्तके पठितम् अस्ति, तत्र अनुनासिककारः नास्ति। गीताञ्जलि भगिनी भवती आरम्भं करोतु।
धातुविज्ञानं द्वितीयभागः, मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयम्। धातुविज्ञानं प्रथमभाग इति पाठे अस्माभिः द्रष्टुं यत् अनुबन्धानां निष्कासनम् इति प्रथमं कार्यम्। इत्संज्ञकवर्णानां निष्कासनानन्तरं सत्वं, णत्वं, नुमागमः, उपधादीर्घः चेमानि सङ्गृहीत्यया द्वितीयकार्यम्। एतेषु चतुर्षु किञ्चन सम्भवति वा इति आवश्यकं चिन्तनीयम्। सम्भवति चेत् इदं कार्यं कुरु, नो चेत् धातुः प्रक्रियार्थं सिद्धः। तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन् करपत्रे अवलोकयाम। अत्र प्रथमभागे इत्युक्ते धातुविज्ञान विज्ञानमिति करपत्रस्य प्रथमभागे वयं तु पठितवन्तः अनुबन्धे के इत्युक्ते तेन निष्कासनं कथं करणीयम्, इत्संज्ञा इति काचित् संज्ञा इति वयं सर्वे सर्वं पठामः, पठितवन्तः। अग्रिमकार्यं किम् इत्युक्ते धातु विहितः कार्यं किम् इत्युक्ते चत्वारि कार्याणि भवितुम् अर्हन्ति। ते के? सत्वं, नत्वं, नुमागमः, अपि च उपधा दीर्घः। सर्वाणि कार्याणि सर्वदा भवन्ति इति तु न, किन्तु कुत्र कुत्र किं कार्यं करणीयम् इति वयं चिन्तनीयं करणीयं, तदा तस्य कार्यं करणीयम्। तस्य कृते इति करपत्रम् अग्रिमं सर्वं दत्तम् इति मन्ये भगिनी।
उत्तमं प्रथमं वाक्यमेव पश्यतु एकवारं मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं मूलधातवः सन्ति औपदेशिकधातवः तेभ्यः लौकिकधातोः निर्माणं करणीयं तस्मिन् प्रसङ्गे एव इमानि चत्वारि कार्याणि चिन्तनीयानि कार्यद्वयम् इत्युक्ते प्रथमं कार्यम् अनुबन्धवर्णानां निष्कासनं इदं द्वितीयं कार्यम् अस्य नाम प्राकृतिकं कार्यं यथा भगिन्या उक्तम् इमानि चत्वारि कार्याणि प्रत्येकं धातोः प्रसङ्गे न चिन्तनीयं किन्तु तत्र धातुम् आश्रित्य धातुम् अनुसृत्य उपदेशावस्थायां धातोः रूपं कीदृशमस्ति धातुं दृष्ट्वा एतेषु चतुर्षु कार्येषु अन्यतमं कार्यं भवति वा इति आदौ चिन्तनीयं तत्र धातुम् आश्रित्य एव इमानि कार्याणि भवन्ति प्रत्येकं धातोः प्रसङ्गे सर्वाणि कार्याणि न भवन्ति धातुम् आधारीकृत्य एव कीदृशं कार्यं भवति इति एकवारं चिन्तनीयम् अत्र चेमानि इति अस्ति तत्र सन्धिं वदतु
च इमानि च इति तु अव्ययं पदम् इमानि इति तु प्रथम विभक्ति स्त्रीलिङ्गं पदम् अस्ति चेमानि हा च इमानि अयोगः इ अत्र गुणसन्धि भूत्वा
स्त्रीलिङ्गपदं नास्ति भगिनि
इमानि कीदृश
इमानि नपुंसकलिङ्ग बहुवचनं
इदम् इमे इमानि
इमानि पदानि तु वयं जानीमः अस्तु धन्यवादः भगिनि तत्र गुणसन्धि भवति गुणसन्धि भूत्वा अयोगः इ ए ए निष्पन्नं भवति
उत्तमं सङ्गृहीततया इति लिखितमस्ति तृतीयान्तं पदमस्ति खलु तत्र सङ्गृहीतता इति तल्प्रत्ययान्तपदमस्ति सङ्गृह्य इति ल्यवन्तपदं प्रथमं कार्यम् अस्माभिः दृष्टम् इदं द्वितीयं कार्यम् इत्युक्ते धातुम् आधारीकृत्य उपदेशावस्थायाम् एतेषु अन्यतमं कार्यं भवति वा इति आदौ चिन्तनीयं प्रथमं कार्यमस्ति सत्वं गोमती भगिनी पठतु
प्रथमबिन्दुः सत्वं धात्वादेः शः सः उपदेशावस्थायां धातोः आदौ शकारः अस्ति चेत् शहारस्य स्थाने सकारादेशो भवति धातोः आदिः धात्वादिः षष्टितत्पुरुषः तस्य धात्वादेः षष्ट्यन्तं शः षष्ट्यन्तं सः प्रथमान्तं त्रिपदमिदं सूत्रम् आदे च उपदेशे शिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धात्वादेः शः सः उपदेशे सूत्रमस्ति धात्वादेः शः सः पदनिर्माणसमये बहूनि सोपानानि भवन्ति तत्र प्रथमं सोपानम् इत्संज्ञायां निष्कासनम् अनन्तरं प्रथमकार्यं धातोः आदे षकारः अस्ति चेत् तत् षकारः सः षकारः सकारः भवति इति सूत्रं वदति उपदेशावस्थायां धातोः आदौ षकारः उपदेशावस्थायां षकारः अस्ति चेदेव षकारस्य सकारः भवति आदेशः भवति धात्वादेः इत्युक्ते षष्टितत्पुरुषः धातोः आदि तस्य धात्वादेः षष्ट्यन्तं शः अपि षष्ट्यन्तं सः प्रथमान्तं तु धात्वादेः षकारस्य स्थाने सकारः आदेशः भवति इति प्रथमान्तं सूचयति आदेशः आगमः संज्ञा इति अत्र सकारः सूचयति आदेशम् इति धात्वादेः षकारस्य स्थाने सकारः भवति धात्वादे इति षकारस्य विशेषः भवति तु यत् षकारः धातोः आदौ अस्ति तत् षकारस्य सकारः भवति इति सूत्रं वदति त्रिपदं सूत्रमिति उपदेशे इति अनुवृत्तिः पूर्वसूत्रात् आदेश उपदेशे शिति इत्यस्मात् अनुवृत्तिः भवति अतः सद्धातुवदेः शः सः इति प्रथमं कार्यं भवतु इति सूत्रं वदति
उत्तमम् साधु भगिनि पूर्वस्मिन् परिच्छेदे किं लिखितमस्ति सम्भवति चेत् इदं कार्यं कुर्मः नो चेत् प्रक्रियार्थं धातुः सिद्धः तद्वाक्यं सर्वदा स्मर्तव्यम् एतेषु चतुर्षु कार्येषु अन्यतमं कार्यं भवति वा इति चिन्तयित्वा अनावश्यकं चेत् इत्युक्ते तत्र किमपि कार्यम् अनपेक्षितम् अथवा अनावश्यकं चेत् प्रक्रियार्थं धातुः सिद्धः भूधातोः प्रसङ्गे तत्र किमपि कार्यं नास्ति भूधातोः अनुबन्धवर्णाः न सन्ति अपि च प्राकृतिककार्याणि अपि न सन्ति तादृशं कार्यम् अनावश्यकं चेत् तत् न करणीयम् अपि च प्रक्रियार्थं सः धातुः अग्रिमानां सोपानानां कृते धातुः सिद्धः भवति
मम मनसि पूर्वं भ्रमः आसीत् शः प्रत्ययस्य धात्वादेः शः सः इति कन्फ्यूशन् यूस्ड् टु बि देर् शः प्रत्ययस्य इति इत्संज्ञा प्रकरणे भवति प्रत्ययस्य आदौ यदि षकारः अस्ति तत् इत्संज्ञा अस्ति तत्तु प्रत्ययः विषये एव एतत् सूत्रं तु धात्वादेः विषये इति भेदः
उत्तमं परिशीलनीयः अंशः अयं विषयः इत्युक्ते धातोः आदौ मूर्धन्यषकारः अस्ति चेदेव धात्वादेः शः सः कार्यं भूत्वा षकारस्य स्थाने दन्तिसकारः आयाति किन्तु प्रत्ययानां प्रसङ्गे यथा शाकन् इति प्रत्ययः अस्ति धातुः भिन्नः प्रत्ययः भिन्नः शः प्रत्ययस्य तत्र प्रत्ययस्य इति स्पष्टतया उक्तमस्ति शः प्रत्ययस्य इति सूत्रं केवलं प्रत्ययानां कृते एव प्रत्ययस्य आदौ मूर्धन्यषकारः अस्ति चेत् शः प्रत्ययस्य सूत्रेण षकारस्य इति संज्ञा भवति अपि च तस्य लोपः अपि भवति अत्र एकः विषयः अयं मूर्धन्यषकारः कुत्र अस्ति इति द्रष्टव्यं धातौ अस्ति वा प्रत्यये अस्ति वा इति द्रष्टव्यम् अपि च षकारः अन्ते अस्ति चेत् किं भवति
हलन्त्यम् इति सूत्रेण तस्य संज्ञा भवति अनन्तरं तस्य लोपः इति सूत्रेण लोपः अपि भवति
अत्र स्थितिः भिन्ना अस्ति डुपचांश् इत्यस्मिन् षकारः धातोः अन्ते अस्ति धातोः अन्ते डुपचांश् इत्यत्र सः मूर्धन्यषकारः हलन्त्यमित्यनेन इति संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति किन्तु धातोः आदौ उपदेशावस्थायां षकारः अस्ति इति कारणतः धात्वादेः शः सः कार्यम् अस्ति इति अत्र परिशीलनीयः अंशः अस्मिन् सूत्रे आदेश उपदेशे शिति इति सूत्रात् उपदेशे इति पदस्य अनुवृत्तिः अस्ति
भगिनि शः सः द्वयमपि प्रथमा विभक्तिः वा
मया किं पठितम् इत्युक्ते शौ शौ शः प्रथमान्तानि सा सौ सः प्रथमान्तानि किन्तु अस्मिन् सूत्रे शः इति कथनेन शः स्थाने धात्वादेः शः सः अस्मिन् सूत्रे शः इति यत् पदं लिखितम् अस्ति तस्य रूपं षष्ट्यन्तं किन्तु दन्त्यसकारस्य रूपं यद् लिखितमस्ति सः तत् रूपं प्रथमान्तम् एवं किमर्थं लिखितमस्ति अस्माभिः कथं ज्ञायते तत्र व्याख्यानमेव शरण्यम् इति तत्र मया पठितम् यद्यपि रूपं श शौ शः सा सौ सः प्रथमान्तानि एव किन्तु हलन्तपदेषु पश्यामश्चेत् प्रथमाविभक्ति बहुवचनरूपमपि शः भवितुमर्हति षष्टिविभक्ति एकवचनरूपमपि शः भवितुमर्हति किन्तु अस्य सूत्रस्य प्रसङ्गे तु शः इति कथनेन षष्ट्यन्तमेव सः इति प्रथमान्तमेव केवलं व्याख्यानं दृष्ट्वा एव अवगन्तुं
शक्नुमः
भगिनी किञ्चित् वदामि भगिनी तत्र अत्र शः कथं षष्टि भवति इत्युक्ते यथा सुहृत् हलन्तपदं प्रातिपदिकं चेत् षष्टिविभक्ति सुहृदः भवति तथा एव स्वीकरणीयम् इति मन्ये भगिनी
तदेव सुहृदिव सरित् शब्दः अपि तथा एव सरित् सरितौ सरितः सरितं सरितौ सरितः सरितः इति पदं बहुत्र आयाति हलन्तशब्देषु प्रथमाविभक्ति बहुवचनं द्वितीयाविभक्ति बहुवचनं षष्टिविभक्ति एकवचनं समानं दृश्यते हलन्तशब्देषु एवमेव अत्रापि हलन्तपदम् आदेश उपदेशे अशिति इति सूत्रमस्ति खलु तस्य प्रसङ्गः मया अन्यत्र पठितं तस्मिन् विषये किञ्चित् वक्तुम् इच्छामि. आदे च उपदेशे अशिति इति पदविभागं कुर्मः चेत् आत् एचः उपदेशे अशिति इति चत्वारि पदानि सन्ति तत्र. सन्धिकार्यं कृत्वा तत्र लिखितमस्ति. इत्युक्ते सूत्राणि छन्दोवद्भवन्ति इति अस्माभिः ज्ञातमेव. आदे च इत्यत्र आत् एचः इति पदद्वयमस्ति. उपदेशे अशिति इति तत्र चत्वारि पदानि. तस्य अर्थः कः? उपदेशे इत्युक्ते उपदेशावस्थायाम् एचः इति कथनेन एजन्तधातवः. एजन्तधातवः इत्युक्ते एच् प्रत्याहारस्य वर्णः तेषाम् अन्ते अस्ति इति अर्थः. एच् प्रत्याहारस्थवर्णः इत्युक्ते उदाहरणं वदामि. गै धातुः अस्ति, ध्यै अस्ति, म्लै अस्ति, ग्लै अस्ति. एते धातवः एजन्तधातवः. एतेषाम् अन्ते ऐकारः अस्ति. गै इति धातुः ऐकारान्तधातुः अथवा एजन्तधातुः. गै धातोः प्रसङ्गे गाता ध्येय अस्ति चेत् ध्याता अथवा गै धातुतः गानं, ध्येय धातुतः ध्यानं, ध्यानं गानम् इत्यादीनि पदानि ल्युडन्तानि. गाता ध्याता इति पदद्वयं तृजन्तपदम्. गै धातोः रूपम् ऐकारान्तधातुः उपदेशे अस्ति, किन्तु आदे च उपदेशे शिति इति सूत्रेण सः एजन्तधातुः आत्वं प्राप्नोति, आकारान्तः भवति इति अनेन सूत्रेण उच्यते. गै गा भवति. तस्मात् परं तृच् प्रत्ययात् तृ इति योजयामः. गातृ इति प्रातिपदिकं सिद्ध्यति, गाता इति तृजन्तरूपं सिद्ध्यति. एवमेव ध्याता. ध्यानम् इति पदस्य प्रसङ्गे अपि एवमेव चिन्तनीयम्. आदे च उपदेशे शिति इति सूत्रस्य कार्यमस्ति तत्र. धातुः एजन्तः, एजन्तधातवः ये ये सन्ति तेषां प्रसङ्गे अनेन सूत्रेण आत्वं सिद्ध्यति अशिति परे. अत्र पदविच्छेदं कुर्मः चेत् अशिति इति रूपम् उक्तमस्ति. अशित् प्रत्यये परे एव अशिति इति निमित्तमस्ति. वयं जानीमः शित् प्रत्ययाः ये शितः न सन्ति ते अशितः. अशित् प्रत्यये परे एव. पश्यन्तु तृच् प्रत्ययः अशित् इति कृत्वा तत्र गाता ध्याता इत्यादिषु तृच् प्रत्ययः अशित् अस्ति अथवा ल्युट् प्रत्ययः अशित् प्रत्ययः अस्ति इति कारणतः अस्य सूत्रस्य प्रसक्तिः तत्र अस्ति. तेन एव तत्र रूपं सिद्ध्यति. उपदेशे एजन्तधातवः आकारान्ताः भवन्ति अशित् प्रत्यये परे. अस्मात् सूत्रात् उपदेशे इति पदम् अनुवृत्तिरूपेण आयाति. अत्र महोदयेन पृष्टं प्रातिपदिकं किं शः इति कथनेन तत्र प्रातिपदिकं किं शा एव प्रातिपदिकं भवति. कोऽपि वदतु.
शकार भवितुमर्हति भगिनि.
शकारः एव प्रातिपदिकम्. उपदेशावस्थायां धातोः आदौ शकारः अस्ति चेत् अनेन सूत्रेण मूर्धन्यशकारस्य स्थाने दन्त्यसकारः आयाति. एतद् अवगन्तुम् अत्र उदाहरणं दत्तमस्ति. गोमती भगिनी भवती एव विवृणोतु पठित्वा.
भगिनी, तत्पूर्वं ह्यः अस्माभिः चर्चितं गयि इति धातु गायति इति भवति. तत्रापि वयम् एतत् सूत्रमेव उपयोगं
न. गीताञ्जलि भगिनी भवती वदतु, गायति रूपं कथं सिद्ध्यति?
गै गा कथं भवति इति
केवलं सन्धिकार्यं.
भादिगणीयधातुः अस्ति, अतः शप् अस्ति. गै योगः शप् योगः ति अस्ति. शप् सार्वधातुकार्धधातुकयोः इत्यनेन तत्र तस्य गुणः भवति. पित् अस्ति, अतः गुणः भवति एव. तो गै गै ऐ ऐ ऐ इत्यस्य गुणः न भवति न भवति.
चिन्तनं कीदृशं भवेत्? गै धातुः विशिष्टधातुः, तत्र गुणकार्यं किमपि नास्ति. तत्र किं भवति? गै इति कथनेन गकारः योगः ऐकारः अस्ति.
तत्र केवलं सन्धिकार्यम् अस्ति. एचोयवायावः इति सूत्रेण ऐ योगः अ अस्ति चेत् आय् आदेशः भवति. आय् इत्युक्ते ऐ स्थाने आय् आयाति. आय् स्थान आय् योगः अ तु तिष्ठति एव. तत्र गाय योगः अ गाय तदनन्तरं ति गायति.
उत्तमं. शप् षित् अस्ति किन्तु सूत्रं किं वदति? अषित् प्रत्यये परे एव
अत्र इति इत्युक्ते आदेश उपदेशे षिति इति कार्यं किं किमर्थं न करोति? गायि गायति भवति चेत् इत्युक्ते अशिति तत्र अत्र तु शप् अस्ति एव इति कारणेन इति सूत्रं प्रसक्ति नास्ति इति.
उत्तमं. तदेव चिन्तनं. तत्र षित् प्रत्ययः अस्ति किन्तु इदं सूत्रम् अषित् प्रत्यये परे एव कार्यं करोति. सूत्रस्य पदविच्छेदं कुर्मः चेदेव अवगन्तुं शक्नुमः. अत्र सूत्रे पूर्वरूपसन्धिः अस्ति, तदर्थमेव अत्र अवग्रहचिह्नं स्थापितम् अस्ति. उपदेशे इत्यस्मात् परम् अवग्रहचिह्नं स्थापितं, तत्र आ स्थाने अवग्रहचिह्नं दृश्यते. अशिति इति निमित्तम् अस्ति. गानम् इत्यस्मिन् प्रसङ्गे अशित् प्रत्ययः अस्ति, ल्यूट् प्रत्ययः अशित् अस्ति इति कारणतः गै धातुतः गानम् इति रूपं साधयितुमिच्छामश्चेत् तस्मिन् अवसरे इदं सूत्रम् अपेक्षितम्. एजन्ताः आकारान्ताः भवन्ति. अग्रिमपरिच्छेदे सत्त्वस्य उदाहरणं दत्तमस्ति. सुन्दर् कल्याण् महोदय, भवान् वदतु.
ये वृत्तान्ते श्वदं वा वृत्तान्ते श्वदम् आस्वादने इति धातुः उपदेशे अधिनुनासिक इत् एकं त्रीणि डाट् द्वे.
सूत्रस्य संख्या समीचीनतया वक्तव्या.
प्रथम अध्याये तृतीयभागे तृतीयपादे एवं द्वितीयसूत्रम् इत्यनेन दकार उत्तरवर्तिनः अम्कारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपश्च श्वदं श्वद् इति लौकिकधातु भवति. धात्वादेः शः सः षष्ठ अध्याये प्रथमपादे त्रिषष्ट्याः सूत्रे इत्यनेन
साधु उक्तवान् षष्ठाध्यायः. केचन जनाः षष्ठं वदन्ति, तत्तु असाधुरूपं. षष्ठाध्यायः इति साधु प्रथमपादः त्रिषष्टितमं सूत्रम्
इत्यनेन आदौ स्थितस्य शकारस्य स्थाने सकार आदेशः स्वद् भवति. तदेव अस्मिन् उदाहरणम् अत्र दत्तं. श्वदम् इति श्वदम् आस्वादने इति औपदेशिकधातुः. तत्र उपदेशे अजन्मासिक इत् इति सूत्रेण दकार अम्कारः इत्संज्ञा भूत्वा लोपः भवति. श्वदम् इति धातुः श्वद् इति लौकिकधातुः भवति. अत्रैव एतत् सूत्रम् उपयुज्यते. धात्वादेः शः सः इति सूत्रेण श्वद् इति लौकिकधातुः स्वद् आस्वादने इति भवति. स्वद् सकारादेशः भूत्वा श्वद् इति लौकिकधातुः स्वद् इति भवति. तदेव उपयोजनीयं स्वादुः स्वादिष्टः एतत् सर्वम् आस्वादने इति रूपं सिद्ध्यति. तदेव
उत्तमं. श्वदौ आस्वादने धातुः अस्ति. अत्र कार्यद्वयम् उक्तमस्ति खलु, अनुबन्धवर्णानां निष्कासनं, पश्चात् उपदेशावस्थायां धातुम् आश्रित्य प्राकृतिककार्यं करणीयम् इति. अस्य धातोः प्रसङ्गे धात्वादेः शः सः इत्यस्य प्रसक्तिः अस्ति. किमर्थं चेत् धातोः आदौ मूर्धन्यषकारः अस्ति इति कारणतः तस्य स्थाने दन्त्यसकारादेशः भवति. पूर्वम् अस्माभिः चर्चितमेव, धातोः अन्ते अस्ति चेत् हलन्त्यं सूत्रेण, प्रत्ययस्य आदौ अस्ति चेत् शः प्रत्ययस्य सूत्रेण कार्यं भवति. किन्तु अत्र स्थितिः भिन्ना अस्ति. धातोः आदौ एव शकारः अस्ति इति कारणतः धात्वादेः शः सः कार्यमस्ति. अग्रे गन्तव्यम्. अग्रिमम् उदाहरणम् इदानीं नरसिंह हेग्डे महोदय, भवान् पठतु.
तत्पूर्वं पठनस्य पूर्वम् अहं किमपि वक्तुमिच्छामि. अत्र धात्वादेशः सः, अत्र शः धात्वादे मध्ये विशेषणविशेषभावः अस्ति. धात्वादेशश्चिन्तम् अस्ति, तत् कारणेन वयं निर्णयं कर्तुं शक्नुमः शकार अपि षष्टि अस्ति.
साधु महोदय, इत्युक्ते धात्वादेः शः तयोर्मध्ये विशेषणविशेष्यभावः अस्ति चेदेव शः इति षष्ट्यन्तं भवितुमर्हति. तदानीम् एव शः स्थाने सः सः इति प्रथमान्तमस्ति. वदतु.
तत्तु मम चिन्तनम् आसीत्, तत् किमपि सम्यक् अस्ति वा न वा मां जानामि. अस्य महत्त्वं किम् इति चेत् कार्यं नट् नट् रत्तौ इति धातु प्रथमम् उपदेशजनक इत्यनेन अकारस्य संज्ञा तस्य लोपः.
अन्यत् उदाहरणम् आदौ स्वदौ आस्वादने इति धातोः प्रसङ्गः अभवत्, इदानीम् अन्यत् उदाहरणं दत्तमस्ति अग्रिमे परिच्छेदे.
वृत्तान्ते श्वतः अन्यत् उदाहरणं गतिनिवृत्तौ इति धातोः यथा सामान्यं प्रथमं कार्यम् इत्संज्ञकवर्णानां निष्कासनं. श्वादौतौ कोऽपि इत्संज्ञकवर्णः नास्ति, अतः प्रथमं सोपानं समाप्तः साक्षात् द्वितीयं सोपानं गच्छेम. तत्र चतुर्षु कार्येषु सत्त्वस्य प्रसक्तिः. श्वादातोः आदौ शकारः अस्ति, अतः धात्वादेशः सः इत्यनेन सूत्रेण शकारस्य स्थाने सकारः ष्टा भवति. अत्र ष्टा इति धातु गतिनिवृत्तौ अर्थे दत्तमस्ति. प्रथमं वयं सूत्रं दर्शितवन्तः धात्वादेशः सः इत्यनेन. अत्र तत्पूर्वम् अत्र इत्संज्ञकवर्णः कोऽपि नास्ति. नेक्स्ट् स्टेप् साक्षात् द्वितीयसोपानं गच्छेम, तु धात्वादेशः स इत्यनेन शकारस्य मूर्धनिशकारस्य दन्तशकारः भूत्वा स्टा इति भवति.
उत्तमम्. पूर्वं स्वद् धातोः उदाहरणम्, इदानीं ष्ठा धातोः उदाहरणं दत्तमस्ति. अर्थं पश्यन्तु. गतिनिवृत्तौ, गतिनिवृत्तिः इत्यस्मिन् अर्थे निवृत्तिः इति पदमपि क्तिन् प्रत्ययान्तरूपमेव. अत्र धातुः मूर्धन्यशकारादि धातुः, ष्ठा धातुः. अस्मिन् धातौ अनुबन्धवर्णाः न सन्ति. पश्यन्तु, ष्ठा धातौ कोऽपि अनुबन्धवर्णः इत्युक्ते इत्संज्ञकवर्णः तत्र नास्ति. था धातुतः निष्पन्नानि कानिचन पदानि वदतु.
स्थानम्.
वयं सर्वे जानीमः खलु स्थानम्. स्थानमिति ल्युडन्तपदमस्ति. स्था धातुतः निर्मितं पदं ल्युडन्तपदं स्थानं. स्थित्वा, प्रस्थाय. स्थित्वा इति क्त्वान्तपदं, प्रस्थाय इति ल्यबन्तपदमस्ति. स्थापयति णिजन्त लट्लकाररूपं. स्थापनं
प्रतिष्ठानम् इति.
उत्तमं. स्थापनम् इति णिजन्तयुक्तं ल्युडन्तं. स्थानं भिन्नं, स्थापनं भिन्नम्. अस्माभिः पठितं खलु णिजन्तपदेषु आकारान्तधातुषु पुकागमः भवति. तदर्थमेव णिच् प्रत्ययस्य योजनेन स्था धातुतः स्थापि इति रूपं सिद्ध्यति. स्थापि इति निजन्तधातुः. तदर्थमेव स्थापनम् इति ल्युडन्तपदं भवति. निच् प्रत्ययस्य योजनेन स्थापनं भिन्नं, स्थानम् इति साधारणं ल्युडन्तपदमस्ति. स्थितिः, स्थितम्, उत्थितम्, उत्तिष्ठति, स्थितवान्, स्थातुं, कानिचन पदानि कृदन्तानि.
भगवान् शिवस्य प्रदेशं किल स्थाणु, स्थाणुप्रदेशः. भगवान् शिवस्य प्रदेशः स्थाणुप्रदेशः इति कथितं किल.
तदपि वसन्त महोदय वदतु.
लट्लकार तिष्ठति भवति
खलु, भवति कथं भवति गोमती भगिनी वदतु.
तत्र एक दीर्घं सूत्रमस्ति. पाख्राध्मास्थाम्ना दाण दृशिर् अर्ति सर्ति सृति षद् सद् पिब जिख्र थम तिष्ठ मन यच्छ पश्य ऋच्छ थौ शीय सीदा इति सप्तमाध्याये तृतीयपादे 87 पादीनां पिबादयः आदेशाः भवन्ति. शितिपरे, शिति इति. एतत् सूत्रं मम पुरतः अस्ति भगिनि.
यथा महोदयेन पृष्टं, धातुः तु स्था अस्ति, लट्लकाररूपं तिष्ठति, वदतु.
क्षितिपरे तस्य तिष्ठ इति आदेशः भवति. षित् प्रत्ययः परे अस्ति चेत् तिष्ठ, स्था तिष्ठ भवति.
उत्तमं. तत्र स्थास्थाने तिष्ठ आदेशः भवति इति कृत्वा तत्र एकं दीर्घं सूत्रमस्ति. तेन सूत्रेण स्थास्थाने तिष्ठ आदेशः भवति इति कृत्वा तिष्ठति इति रूपं. बहूनि कृदन्तपदानि अस्माभिः ज्ञातानि एव. स्थानं, स्थित्वा, स्थापनं, स्थितिः, उत्थितवान्. तत्र एकं विशिष्टं सूत्रं कार्यं करोति, उत्थितवान् इत्यत्र. उत्थाय तत्र एकं विशिष्टं सूत्रम् उदः स्था स्तम्भो पूर्वस्य इति सूत्रेण तत्र थकारः आयाति.
परसवर्णसन्धि किल?
परसवर्णसन्धिः. उदः स्था स्तम्भो पूर्वस्य, स्थाधातोः प्रसङ्गे तस्य कार्यमस्ति. तेन एव उत्थानम् इत्यादिषु तस्य सूत्रस्य आवश्यकता अस्ति. आहत्य अत्र विषयः कः? नरसिंह हेग्डे महोदय, भवान् एव वदतु, अत्र किं लिखितं, प्रसङ्गः कः?
अन्यत् उदाहरणं, अत्र कश्चन प्रसिद्धप्रवादो वर्तते, निमित्तपाये नैमित्तिकस्य अपि अपायः, निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः. निमित्तम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलम्, अपाय इत्युक्ते अभावः. अत्र देयं यत् यद्यपि ष्टा इत्येव अस्य धातोः मूलरूपं किञ्च वस्तुतः यः चकारः वर्तते सः तकारः आसीत्. अष्टाध्यायां तादृशं इङ्गितमस्ति, कथमिति अग्रे दृश्यताम्. षकारस्य मूलरूपं ठकारः, किन्तु षकारस्य प्रभावेन ष्टुत्वसन्धिना ठकार ठकार जातः. तदा धात्वादेशः सः इत्यनेन चकारस्य स्थाने चकारादेशः, चकारस्य कारणेनैव ठकार ठकार जातः इत्युक्तम्. अधुना सः च षकारः अपगतः इति कारणतः तेन शकारेण कृतं यत् कार्यं तत् पुनः निवर्तते. कारणं गतम्, अतः फलमपि गच्छति. तेन निमित्तेन कार्यं कारितं, तन्निमित्तं शकारः नास्ति चेत् यत् नैमित्तिकं ठकारः अस्ति तदपि न तिष्ठति. निमित्तिकपाये नैमित्तिकस्यापि अपायः, शकारः गतः अतः ठकारः अपि गच्छति. ष्टा ष्टा स्था इति धातु निष्पन्नः. अत्र मूल स्टा मूले स्था एव आसीत्. तत् श्रुत्वसन्धिना स्टा अभवत्. अधुना धात्वादेशस्य इत्यनेन सकारः शकार सकार अभवत् इति कारणेन फलं गच्छति चेत् कारणमपि गच्छति. तस्य अर्थः अस्ति निमित्तिकपाय नैमित्तिकस्य अपाय, अतः पुनः स्था भवति धातु.
अत्र बहु किमपि लिखितमस्ति. साधु महोदय, धन्यवादाः. नरेश महोदय, भवान् पुनः एकवारं प्रत्येकं वाक्यं स्वीकृत्य किञ्चित् वदतु.
अत्र कश्चन प्रसिद्धप्रवादो वर्तते, निमित्तापाये नैमित्तिकस्य आप्य पायः. अत्र तु प्रवादः अस्ति, निमित्तापाये नैमित्तिकस्य प्य पायः. अत्र यदि निमित्ता गच्छति तत्र निमित्तिक अपि गच्छति. अहं चिन्तयामि तत् अस्ति, निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः. यदि निमित्तः गच्छति तदा नैमित्तिक अपि गच्छति. निमित्तिकम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलम्, अपायः इत्युक्ते अभावः. कारणं गच्छति, फलमपि गच्छति. अत्र ध्येयं यत् यद्यपि ष्ठा इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते सः थकारः आसीत्. अत्र ष्ठा अस्ति, परन्तु ठकारः थकारः स्थाने आगच्छति. यदि तत् कारणे थकारः स्थाने आगच्छति. यदि थकारः नास्ति तत्र ठकारः अपि न अवशिष्यते. अष्टाध्याय्यां तादृशम् इङ्गितम् अस्ति, कथमिति अग्रे दृश्यताम्. ठकारस्य मूलस्वरूपं थकारः, किन्तु शकारस्य प्रभावेन ष्टुत्वं सन्धिना थकारः ठकारः जातः. तदा धात्वादेः शः सः इत्यनेन शकारस्य स्थाने सकारादेशः. शकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्. अत्र तु तदपि दत्तं. शकारस्य कारणेन थकारः ठकारः जातः. अत्र स्था आसीत्, तत्र यदि शकारः अस्ति तत्र थकारस्य ठकारः भवति. यदि शकारः नास्ति तत्र ठकारः अपि न स्थीयते, स्था भवति. अधुना स च शकारः अपगतः गतः इति कारणतः तेन शकारेण कृतं यत् कार्यं तत् पुनः निवर्तते. कारणं गतम्, अतः फलम् अपि गच्छति. येन निमित्तेन कार्यं कारितं तन्निमित्तं शकारः नास्ति चेत् यत् नैमित्तिकं ठकारः अस्ति तदपि न तिष्ठति. निमित्तापाये नैमित्तिकस्य आप्यपायः शकारः गतः, अतः ठकारः अपि गच्छति. स्थास्था भवति. स्था इति धातुः निष्पन्नः. अत्र तु तत् अस्ति कारणं गतं, फलमपि गतम्. औपदेशिक धातुः स्था अस्ति. स्था किमपि कारणं कारणेन स्था भवति. अत्र श गच्छति तदा ठ अपि ठकारः अपि गच्छति, स्था स्थीयते.
उत्तमं. स्थीयते इति उक्तवान् खलु. स्थीयते इति कीदृशं रूपम्?
आत्मनेपदी.
आत्मनेपदी एव, किन्तु स्था धातोः रूपमेव. कर्मणि लट् खलु.
आम् आम्.
प्रसिद्धप्रवादः. प्रवादः इत्युक्ते परम्परागतं वाक्यम्. इदं वाक्यं लोके प्रसिद्धम् अस्ति. परम्परागतं वाक्यम् इदम्. अत्र निमित्तापाये नैमित्तिकस्यापि अपायः, तत्र सन्धिं कृत्वा लिखितम् अस्ति. नैमित्तिकस्य अपि अपायः, तत्र यण् सन्धिकार्यम् अस्ति. नैमित्तिकस्याप्यपायः, निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः. निमित्तम् इत्युक्ते कारणं, नैमित्तिकमित्युक्ते फलं, निमित्तमित्युक्ते हेतुः अथवा कारणं. नैमित्तिकम् इति पदमस्ति. निमित्तात् आगतं, निमित्तजन्यं, निमित्तभवम् इति वक्तुं शक्यते. निमित्त इति प्रातिपदिकात् नैमित्तिकम् इति पदं तद्धितान्तं पदं निर्मितमस्ति. तत्र ठक् इति एकः प्रत्ययः अस्ति. ठक् प्रत्ययस्य योजनेन निमित्तशब्दात् नैमित्तिक इति रूपम्. एतादृशानि पदानि, अन्यानि पदानि अस्माभिः ज्ञातानि एव. इतिहासशब्दात् ठक् योजनेन ऐतिहासिक. शारीरिक इति एकं पदमस्ति. शरीर इति प्रातिपदिकात् ठक् योजनेन शारीरिक. धर्म इति प्रातिपदिकात् ठक् योजनेन धार्मिक इति रूपं, वृत्ति इति प्रातिपदिकात् ठक् योजनेन वार्तिक इति पदं सिद्ध्यति.
रैवतिकः बलरामस्य पत्नी रेवती अस्ति, रैवतिकः इत्यपि ढक् योजनेन आगच्छति. रैवतिकः
ठक् भिन्नप्रत्ययः, ढक् भिन्नप्रत्ययः. यानि रूपाणि अहं वदन्ती अस्मि तानि रूपाणि ठक् प्रत्ययान्तरूपाणि. न्याय इति शब्दात् ठक् योजनेन अय्यायिका, वसन्तशब्दात् ठक् योजनेन वासन्तिक, ऐतिहासिक, शारीरिक, कौमुदिक इति पदमपि अस्ति. कुमुद इति प्रातिपदिकात् ठक् योजनेन कौमुदिक, धार्मिक, वार्तिक इत्यादीनि पदानि ठक् योजनेन निर्मितानि. अत्र नैमित्तिक इति पदमस्ति. आहत्य अस्माकं विषयः कः? अत्र धातोः मूलरूपं ष्ठा अस्ति. ष्ठा इत्यस्मिन् महाप्राणठकारः श्रूयते. सः ठकारः मूलस्थित्यां महाप्राणठकारः आसीत् इति स्मर्तव्यः अंशः. अष्टाध्याय्यां तादृशम् इङ्गितमस्ति. इङ्गितम् इत्युक्ते सङ्केतः अथवा इण्डिकेशन् दीयते. इत्युक्ते मूलधातुषु मूलस्थित्यां ठकारः अस्ति, सः ठकारः ठकारः भवति. कथम् इत्युक्ते ष्टुत्वसन्धिः भूत्वा. ष्टुत्वसन्धिः किं वदति? ष्टुत्वसन्धिना किम् उच्यते? षकारस्य प्रभावेण ठकारस्य स्थाने ठकारादेशः भवति. ष्टुत्वसन्धेः विधायकसूत्रं ष्टुनाष्टुः, किन्तु अनुवृत्तिसहितसूत्रं स्तोः ष्टुनाष्टुः. सन्धिकार्यं कुत्र भवति? साधारणतया एकस्मिन् पदे भवति, धातूपसर्गयोः मध्ये भवति, समासे भवति, किन्तु वाक्ये तु विवक्षानुगुणं भवति. अत्र एकस्मिन् एव शब्दे ष्ठाधातोः प्रसङ्गे सन्धिकार्यं भूत्वा लिखितमस्ति. इत्युक्ते अत्र एकः विषयः स्मर्तव्यः. धातुपाठं पश्यामश्चेत् स्था इति रूपं तत्र न दृश्यते. धातुपाठे तु ष्ठा एव लिखितमस्ति. इत्युक्ते सन्धिकार्यं कृत्वा धातुपाठे धातून् स्थापितवान् पाणिनिः. किन्तु लौकिकस्थित्याम् इत्युक्ते यदा तिङन्तरूपं वा भवतु, कृदन्तरूपं वा भवतु, किमपि रूपं साधयितुं, लौकिकरूपं साधयितुं ष्ठा इति धातुतः धातुपाठे तु केवलं ष्ठा एव दृश्यते. धातुपाठं परिशीलयामश्चेत् स्था इति रूपं तत्र न दृश्यते. किन्तु अत्र विषयः कः? निमित्तापाये नैमित्तिकस्यापि अपायः इति एकः प्रवादः अस्ति. किन्तु एकः प्रवादः इति एव स्मर्तव्यम्. अयं तु न्यायः नास्ति, सूत्रं नास्ति, परिभाषा नास्ति, किमपि नास्ति. इत्युक्ते अस्य कृते शास्त्रीयतर्कः नास्ति, केवलम् एकः प्रवादः. विश्वविद्यालयेषु अथवा गुरुकुलेषु अस्य वाक्यस्य उल्लेखः अस्ति. इत्युक्ते ते अस्मिन् प्रसङ्गे वदन्ति. किन्तु इदं वार्तिकम् अथवा परिभाषा, न्यायः किमपि नास्ति. सुलभावगमनार्थम् अत्र किञ्चित् दत्तमस्ति. अत्र स्थितिः का? मूले षकारः अस्ति. षकारस्य प्रभावेण यः महाप्राणठकारः अस्ति सः महाप्राणठकारः ष्टुत्वसन्धिः भूत्वा ठकारः अभवत्. एवं रीत्या ष्ठा इति धातोः रूपम् आगतम् इति अत्र लिखितमस्ति. ष्ठा इति धातुं परिशीलयामश्चेत् धातोः आदौ षकारः अस्ति इति कारणतः धात्वादेः शः सः सूत्रेण षकारस्य स्थाने सकारः भवति चेत् तदा स्थितिः तत्र किं भवति? यदा षकारः गतः तदा तन्निमित्तम् आश्रित्य यत् कार्यम् अभवत् तत् कार्यमपि निवर्तते. निवर्तते इत्युक्ते तत् कार्यमपि गच्छति. यदा कारणं गतं तदा फलमपि गच्छति. तत्र कार्यकारणसम्बन्धः अस्ति. कारणस्य अभावे कार्याभावः, कारणाभावे कार्याभावः, कारणाभावे कार्याभावः इति अत्र दृश्यते. इत्युक्ते कारणं गतम् अतः तन्निमित्तिकं फलमपि गच्छति. यदा षकारः सकारः भवति तदा तत्र स्थितस्य ठकारस्य स्थाने पुनः महाप्राणठकारः आयाति इति अनेन उच्यते. एवं रीत्या लौकिकधातोः रूपं स्था अभवत्. किन्तु अत्र पश्यन्तु, षकारस्य स्थाने सकारः आगतः, किन्तु तत्र महाप्राणठकारः तिष्ठति चेत् उच्चारणे काठिन्यं भवति. ष्ठा इत्यत्र सकारः अपि च महाप्राणठकारः तत्रैव अस्ति चेत् उच्चारणे काठिन्यं भवति. उच्चारणसौलभ्यार्थमपि एवमेव लेखनीयम्. तदर्थमेव अत्र लौकिकधातुः स्था इति दत्तमस्ति. अपि च बहवः अन्यविषयाः सन्ति अस्मिन् प्रसङ्गे. उदाहरणार्थं धात्वादेः शः सः इति सूत्रं सर्वत्र कार्यं करोति वा इति प्रश्नः अस्ति. सर्वत्र कार्यं न करोति. नामधातूनां प्रसङ्गे अस्य कार्यं नास्ति. अपि च श्वाष्क धातोः प्रसङ्गे अस्य कार्यं नास्ति. ष्ठिवु निरसने इति एकः धातुः अस्ति. ष्ठिवु निरसने भवन्तः सर्वे श्रुतवन्तः एव. निष्ठीवनम् इति एकं पदम् अस्ति, ल्युडन्तपदं. निष्ठीवनम् इत्युक्ते स्पिटिङ्ग्. टु स्पिट् इत्यस्मिन् अर्थे ष्ठिवु धातुः अस्ति. तस्य धातोः प्रसङ्गे धात्वादेः शः सः कार्यं नास्ति इति कृत्वा तत्र लट्लकाररूपं ष्ठीवति एव भवति. ष्ठिवु धातोः प्रसङ्गे धात्वादेः शः सः कार्यं नास्ति. अपि च श्वाष्क, श्वाष्क इति एकः धातुः अस्ति. तस्य धातोः रूपं श्वाष्कते. अयं धातुः भुवादिगणे अस्ति. श्वाष्कधातोः प्रसङ्गे अपि आदौ स्थितस्य शकारस्य दन्तसकारादेशः न भवति. शकारः यथावत् तिष्ठति. तदर्थमेव श्वाष्कते इति रूपं नामधातूनां प्रसङ्गे अपि धात्वादेहशः सः सूत्रं कार्यं न करोति. नामधातवः के प्रातिपदिकेभ्यः सनादिप्रत्ययानां योजनेन केचन धातवः निर्मिताः. कथम् इत्युक्ते
गरुडायते.
वदतु.
काकः गरुडायते.
तथा एव षण्मुख इति प्रातिपदिकं स्वीकृत्य क्यै इति एकः प्रत्ययः अस्ति. प्रत्ययस्य योजनेन षण्मुखाय इति धातुः. तस्मात् धातुतः षण्मुखायते, यथा महोदयेन उक्तं गरुडायते इत्यादयः नामधातवः. एते धातवः प्रातिपदिकेभ्यः सन्नादिप्रत्ययानां योजनेन एते धातवः निर्मिताः. तेषां नाम सुब् धातवः.
विमनायते इति बहु ब्यूटिफुल् धातु अस्ति. किमर्थं त्वं विमनायते इति प्रष्टुं शक्यते. विमनायते इति विगतः मनः, यस्मात् सः विमनाः, तस्मात् विमनायते इति नामधातु.
उत्तमम्. श्वास्कधातोः प्रसङ्गे, ष्ठिवु धातोः प्रसङ्गे अस्य कार्यं नास्ति. अपि च नामधातुषु अपि धात्वादेः शः सः कार्यं नास्ति. एतद् धातुद्वयम् अपि च सुब् धातून् विहाय अन्यत्र धात्वादेः शः सः कार्यम् अस्ति. एतद् अवगन्तुम् एकं वार्तिकम् अस्ति. धात्वादेः शः सः कार्यं कुत्र न भवति इति अवगन्तुं सुब् धातु ष्टिवु श्वष्कतीनां सत्त्वप्रतिषेधः वक्तव्यः इति एकं वार्तिकमस्ति. तेन वार्तिकेन केषुचित् धातुषु सत्त्वकार्यं न भवति. महोदयेन कानिचन उदाहरणानि उक्तानि. एवमेव पुत्रीयते, कृष्णायते, षण्मुखायते इत्यादयः नामधातुतः निर्मिताः. नामधातुतः निर्मितानि पदानि इमानि. किन्तु षण्मुखायते इत्यत्र तत्र षकारः अस्ति खलु आदौ, तत्र धात्वादेः शः सः कार्यं नास्ति. ष्ठीवति, श्वष्कते इत्यत्रापि अस्य कार्यं नास्ति. एतावत्पर्यन्तं वयं निमित्तापाये नैमित्तिकस्यापि अपायः इति प्रवादस्य प्रसङ्गे किञ्चित् पठितम्. अग्रे अपि तस्य चिन्तनं भविष्यति. तस्य कृते शास्त्रीय आधारः अस्ति वा? शास्त्रीय आधारः अस्ति चेत् इतोपि चिन्तनं किम्? मूलधातोः रूपं ष्ठा इति कथं भवति? तस्मात् लौकिकधातोः रूपं स्था कथम् आयाति इत्यस्य प्रसङ्गे इतोपि चिन्तनम् अग्रे दत्तमस्ति. स्था धातुः इव केचन अन्ये षकारादिधातवः सन्ति. शोपदेशिकधातवः, उपदेशावस्थायां षकारः आदौ अस्ति इति कारणतः शोपदेशिकधातवः केचन सन्ति. तेषां प्रसङ्गे कीदृशचिन्तनम् अपेक्षितम् इति अग्रे दत्तमस्ति. स्नाधातुतः स्नाति, स्नानम् इत्यादीनि पदानि सिद्ध्यन्ति. श्नाधातुः अपि शोपदेशधातुः एव. अस्मिन् प्रसङ्गे बहु किमपि अस्माभिः ज्ञातव्यम्. आदौ ष्टुनाष्टुः सूत्रं कार्यं करोति वा, नो चेत् धात्वादेः शः सः कार्यं करोति वा, अनयोः सूत्रयोः कस्य कार्यं प्रथमं प्रवर्तनीयं, किमर्थं प्रवर्तनीयं, तत्र कारणमस्ति वा, नियमाः के? अष्टुनाष्टुः इति सूत्रम् अष्टमाध्याये अस्ति. धात्वादेः शः सः षष्टाध्याये अस्ति. तयोर्मध्ये कस्य कार्यं प्रथमं भवति, किमर्थं भवति इति चिन्तनम् आवश्यकम्. तत्र पूर्वत्रासिद्धम् इति सूत्रस्य आवश्यकता, नियमस्य आवश्यकता अस्ति. एतत् सर्वम् आगामिसप्ताहे इतोपि विस्तरेण चिन्तनं करिष्यामः।